इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य उत्तराखण्डस्य देहरादून नगरे दिल्ली देहरादून आर्थिक षट्पथ राजमार्गस्य उद्घाटनं करिष्यति। अस्मिन्नवसरे प्रधानमन्त्री दिल्ली देहरादून आर्थिकपथस्य उन्नतखण्डे वन्यजीवी यातायातपथस्य समीक्षामपि करिष्यति। समीक्षायाः पश्चात् श्रीमोदी देहरादून समीपस्थे जयमा दात काली मन्दिरे दर्शनं पूजाञ्च करिष्यति। त्रयोदशोत्तरद्विशतं किलोमीटर मितः दीर्घः षट्पथ प्रवेशनियन्त्रितः दिल्ली देहरादून आर्थिक राजमार्गः द्वादशसहस्रकोटिरूप्यकाणां व्ययेन विकसितः वर्तते। अयं मार्गः दिल्ली देहरादूनयोः मध्ये वर्तमानकाले षड्होराभ्यः अधिक यात्रासमयं प्रायः सार्धहोराद्वयपर्यन्तं न्यूनीकरिष्यति। प्रधानमन्त्री श्रीमोदी उक्तवान् यत् भारतस्य नारीशक्तिः तासां परिश्रमेण साहसेन आत्मविश्वासेन च नूतन शिखरं प्रति प्राप्तवती। सः आग्रहं कृतवान् यत् अवसराणां विस्तारणं कृत्वा महिलानां सशक्तिकरणाय सर्वेऽपि सम्भूय आगच्छेयुः। श्रीमोदी ह्यः नवदिल्ल्यां नारीशक्ति वन्दन सम्मेलनं सम्बोधयन् प्रोक्तवान् यत् नारीशक्ति वन्दन अधिनियमः द्विसहस्राब्दस्य ऊनत्रिंशत्तम वर्षपर्यन्तं सर्वथा कार्यान्वितः भवितुमर्हति, येन महिलानां सहभागिता अस्माकं लोकतन्त्रं सुदृढं करोति, यस्य कृते संसदः बजेट् सत्रस्य विशेषसत्रम् अस्मिन् मासे षोडश दिनांकात् आरप्स्यते।
राज्यों की विधानसभाओं से लेकर देश की संसद तक दशकों की प्रतीक्षा के अंत का समय 16, 17, 18 है। 2023 में नई संसद में नारी शक्ति वंदन अधिनियम के रूप में प्रथम कदम उठाया था। वह समय से लागू हो सके, महिलाओं की भागीदारी हमारे लोकतंत्र को मजबूती दे, इसके लिए 16 अप्रैल से संसद के बजट सत्र की विशेष बैठक का आयोजन होने जा रहा है।
पश्चिमबंगाल तमिलनाडु राज्ययोः विधानसभा निर्वाचनार्थं प्रचारसभाः तीव्रगत्या प्रचलन्ति। विभिन्न दलानां तारा अभियान कर्तारः सम्मेलनानि जनसभाः पथ प्रदर्शनादिकं च कुर्वन्ति। भाजपादलस्य वरिष्ठनेता तथा केन्द्रीय गृहमन्त्री अमितशाहः ह्यः पश्चिमवर्धमानमण्डलस्य रानीगंज जनपदे जनसभां सम्बोधितवान्। अपरपक्षे तृणमूल कांग्रेसस्य नेत्री मुख्यमन्त्री ममता बैनर्जी पश्चिमवर्धमानस्य रघुनाथपुरे जनसभायां सम्मिलितवती। अद्य राष्ट्रं भारतीय संविधानस्य मुख्य शिल्पकारस्य डॉ बी आर अम्बेडकरस्य 37th जन्मदिवसस्य आचरणं करोति। अस्मिन् अवसरे सम्पूर्णे देशे अनेकाः कार्यक्रमाः आयोजिताः सन्ति। नवदिल्ल्याम् अद्य प्रातः संसद भवन संकुले डॉ बी आर अम्बेडकरस्य जयन्त्युत्सवः आयोजितः वर्तते। राष्ट्रपतिः द्रौपदी मुर्मुः डॉ बी आर अम्बेडकरस्य जन्मदिवसस्य पूर्वसन्ध्यायां नागरिकेभ्यः अभिनन्दनं दत्तवती। अस्मिन्नवसरे राष्ट्रपतिना आग्रहः कृतः यत् बाबासाहेब अम्बेडकरस्य आदर्शान् स्वजीवने आत्मसात् कर्तुं प्रतिज्ञां कृत्वा न्यायपूर्णस्य समावेशीय प्रगतिशीलस्य च राष्ट्रस्य निर्माणे योगदानं दातव्यम्। गुजरातस्य दिनद्वयात्मक यात्रायां वर्तमाना राष्ट्रपतिः द्रौपदी मुर्मुः अद्य गांधीनगरस्य लोकभवने डॉ बी आर अम्बेडकरस्य जन्मोत्सवस्य अवसरे सामाजिक समरसता महोत्सवे भागं गृहीष्यति। अस्मिन्नवसरे गुजरातस्य राज्यपालः आचार्य देवव्रतः एवं मुख्यमन्त्री भूपेन्द्र पटेलः अन्ये च गणमान्याः उपस्थिताः भविष्यन्ति। पश्चात् राष्ट्रपतिः गांधीनगरे राष्ट्रिय रक्षा विश्वविद्यालयस्य पञ्चमे दीक्षान्त समारोहे भागं गृहीष्यति। अद्य भक्त्या उत्साहेन भ्रातृत्वभावेन च बैसाखी उत्सवः आचर्यते। अस्य अवसरस्य धार्मिकं सांस्कृतिकं ऐतिहासिकञ्च मूल्यं वर्तते। अस्मिन् दिने एव ऊनशतोत्तर षोडशशततमे वर्षे दशम सिख गुरुणा श्रीगुरुगोविन्द सिंहद्वारा खालसा पन्थस्य आरम्भः अभवत्। आईपीएल क्रिकेट क्रीडायां सनराइजर्स हैदराबाद दलेन राजस्थान रॉयल्स दलं 57 धावनांकैः पराजितम् इति वार्ताः।